नमो नमः प्रियाः श्रोतारः संस्कृतसाप्ताहिकी इत्येतस्मिन् कार्यक्रमे भवतां समेषां हार्दिकं स्वागतम् अभिनन्दनं च। अहं रचा झा कार्यक्रमस्योद्घोषिका उपस्थितास्मि नूतनमङ्कमादाय। अयि संस्कृतसेवारताः श्रोतारः आगच्छन्तु, सम्प्रति कार्यक्रमारम्भे शृण्मः अद्यतनं सुभाषितम् अस्माकं सहयोगिना पुनीत त्रिपाठिना सह।
किं व्रतेन तपोभिर्वा दम्भश्चेन्न निराकृतः, क्रियादर्शेन किं दीपैर्यद्यान्ध्यं न दृशोर्गतम्।
अहो सुन्दरम्। प्रिय मित्राणि, साम्प्रतम् अग्रे सरामः प्रसङ्ग प्रभागं प्रति, यत्र अद्य भावपूर्णं स्तवनं विदधाति अस्माकं सहयोगी पुरुषोत्तम शर्मा।
देवी ध्यानं खड्गं चक्रगदेषु चाप परिघाञ्छूलं भुषण्डिं शिरः शङ्खं सन्दधीं करस्त्रिनयनां सर्वाङ्गभूषावृताम् नीलास्म द्युतिमास्य पाददशकाम् सेवे महाकालिकाम् यामस्त्वत्सपिते हरौ कमलजौ हन्तुम् मधुम् कैटभम् घण्टाशूलहलानि शङ्खमुसले चक्रम् धनुः सायकम् हस्ताब्जर्दधतिम् घनान्तविलसत् चीताम् सुतुल्यप्रभाम् गौरीदेहसमुद्भवाम् त्रिजगताम् आधारभूता महा पूर्वामत्र सरस्वती मनुभजे शुम्भादिदेत्यादिनीम्। ओम्।
समीचीनम्। सम्प्रति अग्रिमे साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विक वृत्तान्तः। साम्प्रतं साप्ताहिकी वार्ताः आदाय उपस्थिता अस्ति निधिः झा।
संसदा पञ्चविंशत्यधिकद्विसहस्रतमवर्षीयम् ऐतिहासिकम् वक्फ संशोधनम् विधेयकम् पारितम्। प्रधानमन्त्री नरेन्द्रमोदी थाईलैंड देशस्य द्विदिवसीय यात्रायाम् गतवान्। तदनन्तरम् श्रीलंका देशम् सम्प्राप्य तत्रत्य राष्ट्रपतिना अनुराग कुमार दिसानायके इत्यमुना सहापि चर्चाम् साधितवान्। C-130J इत्येतत् विमानम् समेत्य भारतीय नौसेनायाः त्रयः अपि जलपोताः साहाय्य सामग्रीभिः सह प्रस्थिताः। प्रधानमन्त्री नरेन्द्रमोदी नवदिल्ल्याम् चिलीदेशस्य राष्ट्रपतिना ग्राब्रियल बोरिक फोंट इत्यनेन सह द्विपक्षीय संवादम् समाचरितवान्। विविध क्षेत्रेषु अनेकेषु सन्धिपत्रेषु च हस्ताक्षरम् कृतवान्। सुप्रख्यातः अभिनेता मनोज कुमारः दिवंगतः। धन्यवादः।
प्रियाः श्रोतारः, साप्ताहिकी वार्ताभिः जागतिक घटना विषये ज्ञात्वा अनन्तरम् पुनः उपस्थिताहम् ज्ञान विज्ञान प्रभागान्तर्गतम् एकम् साक्षात्कारम् आदाय। अस्माभिः साकम् संवादाय उपस्थितो अस्ति अस्माकम् सहयोगिना सुरेश शर्मणा सह श्री लाल बहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालये वास्तुशास्त्र विभागस्य सहायकाचार्यः डॉक्टर देशबन्धु शर्मा।
देवी प्रपन्नार्तिहरे प्रसीद प्रसीद मातर जगतोऽखिलस्य प्रसीद विश्वेश्वरि पाहि विश्वम् त्वमीश्वरि देवि चराचरस्य। प्रियाः सुरभारती समुपासकाः श्रोतृवृन्दाः, अतीव हर्षस्य विषयः यत् आकाशवाण्याम् अस्माभिः सह संवादाय अद्य विराजन्ते नवदेहलीस्थे श्रीलाल बहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालये वास्तुशास्त्र विभागे सहायकाचार्य पदासीनाः डॉक्टर देशबन्धु शर्म महोदयाः। शर्म महोदयानाम् हर्षातिरेकाभिनन्दन वचोभिः आकाशवाणी पक्षतः अहम् सुरेश चन्द्र शर्मा हार्दिकम् अभिनन्दनम् स्वागतम् च वर्तामहे।
धन्यवादाः। नमो नमः। अहमपि अत्र आगत्य हर्षातिरेकम् अनुभवामि।
मान्यवर्याः, संवाद प्रभागस्य एतस्य प्रथमे अंशे प्रश्नः यत् साम्प्रतिके समये लोके ज्योतिषशास्त्रम् योगशास्त्रम् वास्तुशास्त्रादिकम् च महदुपयोगित्वेन दरीदृश्यन्ते। अद्य भवद्भिः सह वास्तुशास्त्रसम्बद्ध चर्चाक्रमे ज्ञातुमिच्छन्ति श्रोतारः यत् किम् नाम वास्तुशास्त्रम्।
वसन्ते अस्मिन्निति वास्तु, अर्थात् यत्र जनाः वसन्ति तत् शास्त्रम् वास्तुशास्त्रमस्ति, तत् सम्बद्ध शास्त्रम् वास्तुशास्त्रमस्ति। अस्माकम् संस्कृत साहित्ये विविधानाम् शास्त्राणाम् रचना कृता वर्तते। तेषु यस्मिन् शास्त्रे गृहनिर्माणस्य, भवन निर्माणस्य, मन्दिर निर्माणस्य, देवप्रासाद निर्माणस्य, राजप्रासाद निर्माणस्य ये खलु विविधाः सिद्धान्ताः सन्ति, इमे सिद्धान्ताः यस्मिन् शास्त्रे निबद्धाः सन्ति, वर्णिताः सन्ति, तत् शास्त्रमेव वास्तुशास्त्रम् कथ्यते। भवन निर्माण शास्त्रमेव वास्तुशास्त्रम्। अथ च शास्त्रस्यास्य एका ऐतिहासिकी परम्परा अस्ति। शास्त्रस्यास्य अष्टादश प्रवर्तकाः सन्ति, येषाम् वर्णनम् प्रायशः विविधेषु पुराणेषु विविधेषु शास्त्रेषु दृश्यते। अनन्तरम् विश्वकर्मा मयाचार्यश्च एतौ द्वौ आचार्यो शास्त्रस्यास्य प्रवर्तक आचार्यरूपेण प्रसिद्धोस्तः।
विश्वकर्मा प्रथमः आचार्यः
न, विश्वकर्मा प्रथमा आचार्य तु नास्ति, अत्र प्रवर्तकाचार्या नाम कश्चन परम्परा अस्ति। अष्टादश आचार्य सन्ति, अष्टादश प्रवर्तका सन्ति, तेषु एका विश्वकर्मा अपि वर्तते, तेषु एका मया अपि वर्तते। अनन्तरम् एतेषु अष्टादश आचार्येषु विश्वकर्मणः अथ च मयस्य या परम्परा अस्ति अग्रे बहु विकसितरूपेण प्रारब्धा।
सम्यक्, भवद्भिः बहु सम्यक्तया ख्यापितम्। महोदयाः, सम्प्रति प्रश्नः यत् वेदैः सह शास्त्रस्यास्य कीदृशः सम्बन्धः, श्रोतारः एतस्मिन् विषये ज्ञातुमिच्छन्ति।
महोदय, यथा कथ्यते सर्वज्ञानमयो हि सः, वेदस्य कृते उक्तिरियम् प्रसिद्धा, अस्यार्थः सर्वेषाम् ज्ञानानाम् विज्ञानानाम् च मूलम् तु वेद एव वर्तते। मूलतश्चत्वारो वेदः ऋग्यजुसामथर्वाख्यः, वेदानाम् पुनरुपवेदः क्रमेण आयुर्धनुर्गन्धर्वर्थाख्यः, स्थापत्यवेदोऽपि अथर्ववेदस्य उपवेदो मन्यते। यथोक्तम् ऋग्यजुसामथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः शस्त्रमिज्ञास्तुतिस्तोमम् प्रायश्चितम् व्यदात्क्रमात्, आयुर्वेदम् धनुर्वेदम् गान्धर्ववेदम् आत्मनः, स्थापत्यम् चासृजद्वेदम् क्रमात् पूर्वादिभिर्मुखैः। वेदानाम् शाखाः प्रशाखाश्च सहस्रदा विभक्ता व्याख्याताश्च सन्ति। वेदा एव वेदाङ्गपुराणन्यायमीमांसा धर्मशास्त्रादिषु चतुर्दशसु विद्यासु नानारूपैर्व्याख्याताः। वेदविज्ञानार्थम् अवगन्तुम् षड्वेदाङ्गानि प्रोक्तानि। एतेषाम् वेदाङ्गानाम् विन्यासो वेदपुरुषस्य शरीरे विविधेषु अङ्गेषु कृता। मुगलशासकानाम् काले एतादृशानाम् नेकेषाम् भवनानाम् विनाशो जातः। संस्कृतसाहित्ये एतादृशानाम् भवनानाम् उदाहरणानि प्राप्यन्ते। विश्वस्य प्राचीनतमे साहित्ये ऋग्वेदे अपि भव्य भवनानाम् निदर्शनानि समुपलभ्यन्ते। शुक्राचार्येण स्वनीतिसारे द्वात्रिंशत् विद्यासु शिल्पविद्यायाः अपि गणना कृता।
द्वात्रिंशत् विद्यासु,
सत्यम्, द्वात्रिंशत् विद्या सन्ति, तेषु एका विद्या शिल्पविद्या वर्तते। वस्तुतास्तु स्थापत्यशास्त्रम् वास्तुशास्त्रम् वा वेदविद्याङ्गत्वेनैव प्रख्यातम्, यतो हि शास्त्रमिदम् अथर्ववेदस्य उपवेदत्वेन
गण्यते।
अतः वेदविद्या एव वास्तुशास्त्रम् वर्तते। केचन अद्यत्वे कथ्यन्ते यत् शास्त्रमिदम् भारतस्य नास्ति, परञ्च वस्तुतः शास्त्रमिदम् वेद विद्यारूपेण अस्ति, यतोहि साक्षात् वेदानाम् उपवेदः। अत्रैव न केवलम् वेदानाम् उपवेदः न, अपि तु यानि अस्माकम् वेदाङ्गानि सन्ति तेषु षट्सु वेदाङ्गेषु एकम् वेदाङ्गम् ज्योतिषम् वेदाङ्गम्, द्वितीयम् वेदाङ्गम् अस्ति कल्पवेदाङ्गम्। तत्र ज्योतिष वेदाङ्गान्तर्गतम् ये त्रयः स्कन्धाः सन्ति, तेषु त्रिषु स्कन्धेषु संहितास्कन्देन सा वास्तुशास्त्रस्य सम्बद्धः
वर्तते।
अथ च कल्पवेदाङ्गान्तर्गतं शुल्भसूत्रम् एकमस्ति, तत्र शुल्भशब्दस्य अर्थ एव भवति रज्जु, यस्य उपयोगः मापनार्थं भवति तद् शुल्भ एव वास्तुशास्त्रस्य मूलं वर्तते, तेनैव मापनं क्रियते भवनेषु।
बहु सम्यक्तया ख्यापितं भवद्भिः। एतस्य संवाद प्रभागस्य अन्तिमे अंशे प्रश्नः यत् आधुनिके काले वास्तुशास्त्रस्य अस्य कीदृशी प्रासंगिकता उपयोगिता च लोके दरीदृश्यते।
आधुनिके काले वास्तुशास्त्रस्य अस्य त्रया भेदाः पुनापि सन्ति, यथा पूर्वमपि आसीत्, परञ्च इदानीं ये भेदाः सन्ति ते क्रमेण आवासीय वास्तुरूपेण अस्ति एकः भेदः, द्वितीय भेदः व्यवसायिक वास्तुरूपेण अस्ति, तृतीय भेदः धार्मिक वास्तुरूपेण अस्ति।
ये धार्मिक संस्थानानि सन्ति,
धार्मिक संस्थानानि इत्युक्ते यानि मन्दिराणि सन्ति अस्माकं, ये आश्रमाः सन्ति अस्माकं, यत्र लोककल्याणार्थं परोपकार भावनया कार्यं क्रियते, तत् तेषां सर्वेषां भवनानाम् अन्तर्भावः धार्मिक वास्तुशास्त्रान्तर्गतम् अस्ति। अथ च यत्र व्यवसायिक दृष्ट्या कार्यं क्रियते, यदि मन्दिरं किमपि अस्ति परञ्च तत्र व्यवसायिक दृष्ट्या कार्यं जायमानम् अस्ति,
अत्रापि त्रयो भेदाः,
आम् त्रयो भेदाः एव सन्ति,
आवासीयाः, आवासीयाः, व्यवसायिकाः,
धार्मिकाश्च। यद्यत्वे काले एतस्य शास्त्रस्य बहु प्रासंगिकता अस्ति, यतोहि इदानीं भव्या भवनानि तु सन्ति, जनानां पार्श्वे धनम् अस्ति, तेन ते भव्या भवनानां निर्माणं कुर्वन्ति, परञ्च एतेषु भव्या भवनेषु निवासं कृत्वा तेषां मनसि शान्तिर्नास्ति,
युवभ्यः
नास्ति,
युवभ्यः वृत्त्यवसराः अपि,
आम् सत्यं
शास्त्रेण,
आम् आम्, वस्तुतः किं शास्त्रं, शास्त्रस्य अस्य मूलं रूपं संस्कृत ग्रन्थेषु निबद्धम् अस्ति, अतः ये संस्कृतज्ञः सन्ति तेषां कृते मूल अवसरः अस्ति,
मूल अवसरः,
ये संस्कृत ग्रन्थानां यथा राजवल्लभ वास्तुशास्त्रम् अस्ति, विश्वकर्मा प्रकाशः अस्ति, विश्वकर्म वास्तुशास्त्रम् अस्ति, मयमतम् अस्ति, अपराजित पृच्छा अस्ति, एतादृशाः बहवः ग्रन्थाः या संस्कृत भाषायां निबद्धाः सन्ति वास्तुशास्त्रे,
निश्चित्वेन यूनां कृते बहवः वृत्त्यवसराः,
आम् यूनां कृते बहवः वृत्त्यवसराः सन्ति, न केवलम् अस्माकं विश्वविद्यालयेषु महाविद्यालयेषु अपि तु लोके अपि स्वकीय व्यवसाय रूपेण वास्तु परामर्शक रूपेण अपि ते कार्यं कर्तुं प्रभवन्ति।
बहु सम्यक्तया ख्यापितं भवद्भिः मान्यवर्याः। अद्य वास्तुशास्त्रम् अधिकृत्य भवद्भिः ख्यापितैः शास्त्रपरकमृत विद्वद्वचोभिः वयम् धन्याः अनुगृहीताः। आकाशवाणीपक्षतः पौनः पुन्येन भवद्भ्यः हार्दाः धन्यवादाः, सादरम् प्रणामाः, नमो नमः।
धन्यवादाः, अहमपि अत्र आगत्य हर्षातिरेकम् अनुभवामि, अथ च आकाशवाण्याः संस्कृत एकांशस्य एयं प्रकल्पः स्तुत्यः वर्तते, ये अस्य प्रकल्पस्य एक संस्कृत एकांशस्य अधिकारिणः सन्ति, कर्मचारिणः सन्ति, अथ च ये के च अत्र कार्यं कुर्वन्तः सन्ति एतादृशाः संस्कृतज्ञाः अभिनन्दनीयाः सन्ति इत्युक्त्वा अहमपि स्वकीयं वाचम् अवसारयामि। धन्यवादाः।
जयतु संस्कृतम्, जयतु भारतम्।
ज्ञानप्रदः संवादः एषः। अयि रसिकाः श्रोतारः, अधुना क्रमो वर्तते संस्कृत दिग्दर्शन प्रभागस्य, यत्र विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीया सहयोगिनी साधना शर्मा।
के बिरला फाउंडेशन इत्यनेन प्रतिष्ठितं सरस्वती सम्मानं प्रख्याताय संस्कृत विदुषे महामहोपाध्यायाय संत भद्रेशदासाय प्रदास्यते। असम विश्वविद्यालये अनौपचारिक संस्कृत शिक्षा केन्द्रेण व्याख्यान कार्यक्रमः आयोजितः। कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालये अप्रैल मासे द्वितीय दिनांके संबंधन समितेः तृतीय च वित्त समितेः अभिषदश्च उपवेशनम् जातम्, नवमे च अधिषदः उपवेशनम् सम्भावितम्, एकादशात् शास्त्री आचार्य कक्षाणां परीक्षा घोषिता। केन्द्रीय संस्कृत विश्वविद्यालयः शिक्षा मन्त्रालयेन संचालितानां संस्कृत संवर्धनाय IIT हैदराबादस्य संयुक्त तत्वावधाने संस्कृत आधुनिक विज्ञान विषये च ग्रीष्मकालिकः शैक्षणिक कार्यक्रमः आयोज्यते। अत्र प्राक्शास्त्री कक्षायां प्रवेशम् इच्छुकाः छात्राः आवेदनं कर्तुं शक्नुवन्ति। तृतीय दिनांके कविकुल गुरु कालिदास संस्कृत विश्वविद्यालयस्य छात्राः शिक्षकाश्च श्री जगदम्बा महालक्ष्मी मन्दिरे श्री सूक्तस्य अष्टोत्तर शतवारं पारायणं कृतवन्तः। अयं विश्वविद्यालयः पत्रकारितायाम् उत्कृष्टतायाः राष्ट्रिय पुरस्कारेण सम्मानितः। महर्षि पाणिनी संस्कृत एवं वैदिक विश्वविद्यालये पञ्चमः दीक्षांत समारोह सोमवासरे सम्पन्नः। संस्कृत विमर्श शोधपत्रिकायाः कृते शोधपत्रम् आवेदितुं शक्यते।
प्रियाः श्रोतारः, अधुना कार्यक्रमस्य अग्रे बालवल्लरी प्रभागे बालानां मनोरञ्जनाय ज्ञानवर्धनाय च जतन शर्मा प्रस्तौति एकां रुचिकरां कथाम्।
अयि भो बालाः, अद्य वयं वानरस्य चातुर्यम् इति मां कथां शृण्मः। नदीतटे एकस्मिन् जम्बूवृक्षे एकः रक्तमुखः वानरः वसति स्म। सः जम्बूफलानि खादति स्म। नद्याः जले एकः मकरः तस्य मित्रमासीत्। एकदा मकरः स्वपत्न्यै जम्बूफलानि अददात्। मधुराणि जम्बूफलानि खादित्वा मकरस्य पत्नी प्राह मधुराणि फलानि खादित्वा वानरस्य हृदयं कियन् मधुरं स्यात् तर्हि आनयत् तस्य मित्रस्य हृदयम् इति। मकरः तीरमागत्य वानरम् अवदत्, बन्धो तव भ्रातृजाया त्वाम् गृहे निमन्त्रयति, अहं त्वां पृष्ठे धृत्वा गृहं नेष्यामि। वानरः तथा अकरोत्। नदी मध्ये आनीय मकरः वानरम् अवदत्, मित्र, मम पत्नी तव मधुरं हृदयं खादितुम् इच्छति। हृदयं तु वृक्षस्य कोटरे निहितमस्ति इति वानरः अवदत्, अतः मां तत्र नय, येन स्वहृदयम् आनीय स्वभ्रातृजायां तोषयामि। मूर्ख मकरः वानरं पुनः वृक्षसमीपम् अनयत्। वानरः उत्प्लुत्य वृक्षम् आरुह्य अवदत्, धिक् मूर्ख, त्वं मित्रेण सह विश्वासघातम् अकरोः, आवयोः मैत्री समाप्ता इति। अनेन प्रकारेण वानरः स्वचातुर्यं प्रदर्श्य संकटात् विनिर्मुक्तः।
प्रियाः सहृदयाः श्रोतारः, बालवल्लरी प्रभागानन्तरम् अग्रिमः प्रभागो अस्ति एकं भारतं श्रेष्ठं भारतमिति, यत्र मम सहयोगिनी सुषमा कुमारी श्रावयति विभिन्न भाषासु कानिचन वाक्यानि।
प्रथमं वाक्यमस्ति, भारतदेशस्य दक्षिणभागे केरलप्रदेशो विराजते। भारतदेश के दक्षिण भाग में केरल राज्य विराजमान है। हरियाणवी में भारत के दक्षिण में केरल पड़ा है। द्वितीयं वाक्यम अस्ति, अस्य प्रदेशस्य राजधानी तिरुवनंतपुरम अस्ति। इस प्रदेश की राजधानी तिरुवनंतपुरम है, हरियाणवी में जिसकी राजधानी तिरुवनंतपुरम है। तृतीयं वाक्यम अस्ति, अस्य पश्चिम भागे अरब सागर स्थितोस्ति। इसके पश्चिम भाग में अरब सागर है, हरियाणवी में इसके पश्चिम में अरब सागर पड़ा है। धन्यवाद।
निश्चितमेव ज्ञानवर्धक स्यात् अयम् संगमः। अयि श्रोतृवृन्दाः, अधुना तु कालः समायातः प्रस्थान वेलायाः। अग्रिमे सप्ताहे अस्मिन्नेव काले अभिनवम् एकमंकम् आदाय पुनः उपस्थास्यामहे। तावत् पर्यन्तं भवन्तः सर्वे स्वीय जिज्ञासां प्रतिपुष्टि प्रक्रियां अस्मभ्यां प्रेषितुं शक्नुवन्ति। अस्माकं ईमेल संकेतो वर्तते nsdsanskrit@gmail.com इति। नमो नमः।